अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतामकृत्रिमा शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते। अनायुध इति अनायुधे निरायुधे सत्वेन केनचित् प्राणिना जिघांसिते हन्तुमिष्टे हन्तेः सन्नन्तात् कर्मणि क्तः मुनौ विषये कृपेति वृत्तिः व्यवहारः महतां महात्मनाम् अकृत्रिमा अकपटा सहज्यया सज्यः सायकः यस्मिन् तत् शरासनं धनुः बिभ्रति दधति मयि सह नृपः कथं कृतानुकम्पः मया प्रतीयते ज्ञायते। इणः कर्मणि लट् अक्षमे कृपा विहिता न तु क्षमे इत्यर्थः। अथो शरस्तेन मदर्थमुज्झितः फलं च तस्य प्रतिकाय साधनम् अविक्षते तत्र मयात्मसात्कृते कृतार्थतानन्वधिका चमूपतेः। अथो इति अथो प्रश्ने मङ्गलानन्तरारम्भप्रश्नकार्ष्ण्येष्वथो अथ इत्यमरः तेन नृपेण मदर्थं यथा तथा अर्थेन सह नित्यसमासः शरः उज्झितः त्यक्तः तस्य उज्झितस्य फलञ्च प्रतिकायस्य प्रतिपक्षस्य साधनं वधः साधनं निर्वृतौ मेढ्रे सैन्ये सिद्धौ वधे गतौ इति विश्वः। अविक्षते अखण्डिते तत्र तस्मिन् सफले मया आत्मसात्कृते स्वाधीनीकृते सति तदधीनवचने इति सातिप्रत्ययः चमूपतेः अधिका कृतार्थता साफल्यं ननु खलु। स्वायुधस्य परत्राणशत्रुवधपात्रप्रतिपादनाय एकहेलया सिद्धेह इत्यर्थः। तथापि अयं शरलोभ इति कृपालुतायाः मूलान्यपि निकृन्ततीति भावः। यदार्थकामं भवता स याच्यताम् इति क्षमं नैतदनल्पचेतसाम् कथं प्रसह्याहरणैषिणां प्रियाः परावनत्या मलिनीकृताश्रियः। यदिति सः नृपः कामं भवता याच्यतामिति यदात्थ मामिति शेषः एतदनल्पचेतसां मनस्विनां न क्षमं न युक्तं कुतः प्रसह्य बलात् आहरणैषिणाम् आहर्तुमिच्छूनां क्षत्रियस्य विचितम् इति स्मरणादिति भावः। परावनत्या याच्नादैन्येन मलिनीकृताः श्रियः कथं प्रियाः न कथञ्चिदित्यर्थः। अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः। अभूतमिति तव नृपः अभूतम् अनृतम् आसज्य मिथ्या अभियुज्य इत्यर्थः। युक्तेष्मादावृते भूतम् इत्यमरः अलभ्यं लब्धुमशक्यं विरुद्धं विपरीतफलकम् ईहितं मनोरथं बलात् लिप्सते लब्धुमिच्छति ನಚ ಏತಚ್ಚಿತ್ರಮಿತ್ಯಾಹ ಹಿ ಯಸ್ಮಾತ್ ಅನಯಸ್ಯ ದುರ್ನಯಸ್ಯ ರೌದ್ರತಾಂ ಭಯಂಕರತ್ವಂ ವಿಜಾನತೋಪಿ ಪುರುಷಸ್ಯ ಮತಿಹಿ ಬುದ್ಧಿಹಿ ಅಪಾಯೇ ವಿನಾಶಕಾಲೇ ಪರಿಮೋಹಿನೀ ಭವತಿ ಪರಿಮುಹ್ಯತೀತಿ ಪರಿಮೋಹಿನೀ ಸಂಪೃಚಾದಿಸೂತ್ರೇಣ ತಾಚ್ಛಿಲ್ಯೇ ಘಿನುನ್ ಪ್ರತ್ಯಯಃ ಪ್ರಾಯೇಣ ವಿನಾಶಕಾಲೇ ವಿಪರೀತಬುದ್ಧಿಃ ಭವತೀತಿ ಭಾವಃ ಅಸಿಶ್ಯರಾವರ್ಮ ಧನುಶ್ಚನೋಚ್ಚಕೈಃ ವಿವಿಚ್ಯ ಕಿಂ ಪ್ರಾರ್ಥಿತಮೀಶ್ವರೇಣ ತೇ ಅಥಾಸ್ತಿ ಶಕ್ತಿಃ ಕೃತಮೇವ ಯಾಚ್ನಯಾ ನ ದೂಷಿತಃ ಶಕ್ತಿಮತಾಂ ಸ್ವಯಂಗ್ರಹಃ ಅಸಿರಿತಿ ಅಸಿಹಿ ಖಡ್ಗಃ ಶರಾಃ ವರ್ಮ ಕವಚಂ ಉಚ್ಚಕೈಃ ಉತ್ಕೃಷ್ಟಂ ಧನುಶ್ಚ ಧನುರ್ವಾ ತೇ ತವ ಈಶ್ವರೇಣ ಸ್ವಾಮಿನಾ ವಿವಿಚ್ಯ ಏಕೈಕಶಃ ವಿಭಜ್ಯ ಕಿಂ ನ ಪ್ರಾರ್ಥಿತಂ ನ ಯಾಚಿತಂ ಯೇನ ಪ್ರಯೋಜನಂ ತದ್ದಾಸ್ಯಾಮೀತಿ ಭಾವಃ ನಪುಂಸಕೈಕಶೇಷಃ ಅಥ ಅಸ್ಯ ವೀರಾಭಿಮಾನಿನೀ ನೃಪಸ್ಯ ಶಕ್ತಿರಸ್ತಿ ಚೇದಿತಿ ಶೇಷಃ ಯಾಚ್ನಯಾ ಕೃತಮೇವ ಅಲಮೇವ ಸಾಧ್ಯಾಭಾವಾತ್ ನ ಯಾಚಿತವ್ಯಮೇವ ಇತ್ಯರ್ಥಃ ಗಮ್ಯಮಾನಕ್ರಿಯಾಪೇಕ್ಷಯಾ ಕರಣತ್ವಾತ್ ತೃತೀಯಾ ಇತ್ಯುಕ್ತಂ ಪ್ರಾಕ್ ಕೃತಮಿತಿ ನಿಷೇಧಾರ್ಥಂ ಅವ್ಯಯಂ ಯತಃ ಶಕ್ತಿಮತಾಂ ಸ್ವಯಂಗ್ರಹಃ ಬಲಾದ್ಗ್ರಹಣಂ ನ ದೂಷಿತಃ ಕಿಂತು ಭೂಷಣಮೇವ ವೀರಾಣಾಮಿತಿ ಭಾವಃ ಸಖಾಸಯುಕ್ತಃ ಕಥಿತಃ ಕಥಂ ತ್ವಯಾ ಯದೃಚ್ಛಯಾ ಸೂಯತಿ ಯಸ್ತಪಸ್ಯತೆ ಗುಣಾರ್ಜನೋಚ್ಛ್ರಾಯ ವಿರುದ್ಧ ಬುದ್ಧಯಃ ಪ್ರಕೃತ್ಯ ಮಿತ್ರಾಹಿ ಸತಾಮಸಾಧವಃ ಸಖೇತಿ ಸ ನೃಪಃ ಕಥಂ ತ್ವಯಾ ಯುಕ್ತಃ ಯೋಗ್ಯಃ ಸಖಾ ಕಥಿತಃ ನ ಕಥಂಚಿತ್ ಕಥನೀಯಃ ಇತ್ಯರ್ಥಃ ಯಃ ನೃಪಃ ತಪಸ್ಯತೆ ತಪಶ್ಚರತೆ ಅನಪರಾಧಿನಃ ಇತ್ಯರ್ಥಃ ಕ್ರುಧದ್ರುಹ ಇತ್ಯಾದಿನಾ ಸಂಪ್ರದಾನತ್ವಾತ್ ಚತುರ್ಥೀ ಯದೃಚ್ಛಯಾ ಸ್ವೈರವೃತ್ಯಾ ಯದೃಚ್ಛಾ ಸ್ವೈರಿತಾ ಇತ್ಯಮರಃ ಅಸೂಯತಿ ಅಸೂಯಾಂ ಕರೋತಿ ಅಸೂಯಾತು ದೋಷಾರೋಪೋ ಗುಣೇಷ್ವಪಿ ಇತ್ಯಮರಃ ಪ್ರತ್ಯುತ ಶತ್ರುರೇವ ಅಯಂ ಇತ್ಯಾಹ ಹಿ ಯಸ್ಮಾತ್ ಗುಣಾನಾಂ ಆರ್ಜನೆ ಯಃ ಉಚ್ಛ್ರಾಯಃ ಉತ್ಕರ್ಷಃ ತಸ್ಯ ವಿರುದ್ಧ ವಿಮುಖ ಬುದ್ಧಿಃ ಯೇಷಾಂ ತೇ ತಥಾ ಅಸಾಧವಃ ದುಷ್ಟಾಃ ಸತಾಂ ಸಜ್ಜನಾನಾಂ ಪ್ರಕೃತ್ಯಮಿತ್ರಾಃ ಪ್ರಕೃತ್ಯಾ ಶತ್ರವಃ ದ್ವಿಡ್ವಿಪಕ್ಷಾಹಿತಾಮಿತ್ರ ದಸ್ಯು ಶಾತ್ರವಶತ್ರವಃ ಇತ್ಯಮರಃ ವಯಂ ಕ್ವ ವರ್ಣಾಶ್ರಮ ರಕ್ಷಣೋಚಿತಾಃ ಕ್ವ ಜಾತಿಹೀನಾ ಮೃಗಜೀವಿತಚ್ಛಿದಃ ಸಹಾಪಕೃಷ್ಟೈರ್ಮಹತಾಂ ನ ಸಂಗತಂ ಭವಂತಿ ಗೋಮಾಯು ಸಖಾ ನದಂತಿನಃ ವಯಮಿತಿ ವರ್ಣಾಶ್ರಮರಕ್ಷಣೋಚಿತಾಃ ವಿಶುದ್ಧವೃತ್ತಯಃ ವಯಂ ರಾಜಾನಃ ಕ್ವ ಜಾತಿಹೀನಾಃ ಮೃಗಜೀವಿತಚ್ಛಿದಃ ಹಿಂಸಾಜೀವಿನಃ ವ್ಯಾಧಾಃ ಕ್ವ ಫಲಿತಮಾಃ ಅಪಕೃಷ್ಟೈಃ ಉಕ್ತರೀತ್ಯಾ ಜಾತ್ಯಾ ವೃತ್ಯಾ ಚ ನಿಕೃಷ್ಟೈಃ ಸಹ ಮಹತಾಂ ತಾಭ್ಯಾಮೇವ ಉತ್ಕೃಷ್ಟಾನಾಂ ಸಂಗತಂ ಸಖ್ಯಂ ನ ಘಟತೆ ಇತಿ ಶೇಷಃ ತಥಾ ಹಿ ದಂತಿನಃ ಗಜಾಃ गोमायूनां शृगालानां सखायः गोमायुसखाः न भवन्ति। स्त्रियां शिवा भूरिमाय गोमायुर्मृगधूर्तकाः शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः इत्यमरः। अत्र विशेषेण सामान्यसमर्थनरूपः अर्थान्तरन्यासः। परो वजानाति यदज्ञता जडः तदुन्नतानां न विहन्ति धीरताम्। समानवीर्यान्वय पौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया। पर इति अज्ञताजडः मोहान्धः। परः अवजानाति यत्तत् अवज्ञानम् उन्नतानां महताम् धीरताम् निर्विकारचित्तत्वम् न विहन्ति न विकारम् जनयतीत्यर्थः। क्रोष्टेव सिंहस्येति भावः। किन्तु समानानि तुल्यानि वीर्यान्वयपौरुषाणि शक्तिकुलविक्रमाः येषां तेषु मध्ये निर्धारणे सप्तमी यः कश्चिदित्यर्थः। अतिक्रान्तिम् अतिक्रमं करोति चेत् असौ सदृशजनातिक्रमः तिरस्क्रिया तिरस्कारः। यथा सिंहे सिंहस्येति भावः। यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः। स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम्। यदेति यदा विगृह्णाति विरुणद्धि पृथग्जनेनेति शेषः तदा यशः हतं नाशितं भवेत्। अथ मैत्रीं करोति तदा गुणाः दूषिताः भवेयुरिति शेषः। इति उभयथा स्थितिं समीक्ष्य प्रतर्क्य विमृश्य परीक्षकः विवेचकः पृथग्जनं नीचजनम् अवज्ञया अनादरेण उपहतं तिरस्कृतं करोति उपेक्षते इत्यर्थः। मया मृगान् हन्तुरनेन हेतुना विरुद्धमाक्षेपवचस्तितिक्षितम्। शरार्थमेष्यत्यथ लप्स्यते गतिम् शिरोमणिं दृष्टिविषाञ्जिघृक्षतः। मयेति अनेन हेतुना सन्धिविग्रहानर्हत्वेन कारणेन मया मृगान् हन्तुः व्याधस्य सम्बन्धि हन्तेः तृन्प्रत्ययः। अत एव नलोक इत्यादिना षष्ठीप्रतिषेधः। विरुद्धम् अतिपरुषम् आक्षेपवचः तिरस्कारवचनम् तितिक्षितं सोढम्। ननु सख्यानङ्गीकारे बलात् शरं ग्रहीष्यतीत्याशङ्क्य आह शरेति। अथ शरार्थम् एष्यति दृष्टौ विषं यस्य तस्मात् दृष्टिविषात् सर्पविशेषात् शिरोमणिं जिघृक्षतः ग्रहीतुमिच्छतः गतिं दशां लप्स्यते प्राप्स्यति। इति रिताकूतमनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ययौ समीपं ध्वजिनीमुपेयुषः। प्रसन्नरूपस्य विरूपचक्षुषः। इतीति इति इत्थम् ईरिताकूतम् उक्ताभिप्रायम् अनीलवाजिनम् श्वेताश्वम् अर्जुनं दूतः जयाय तेजसा प्रतापेन प्रतितर्ज्य अस्मान् अजित्वा क्व गमिष्यसीति भीषयित्वा इत्यर्थः ध्वजिनीम् उपेयुषः सेनासङ्गतस्य प्रसन्नरूपस्य अर्जुनं प्रतीतिशेषः विरूपचक्षुषः त्र्यम्बकस्य समीपं ययौ ततोपवादेन पताकिनीपतेः चचालनिर्ह्रादवती महाचमूः युगान्तवाताभिहतेव कुर्वती निनादमम्भो निधिवीचि संहतिः तत इति ततः पताकिनीपतेः सेनापतेः अपवादेन आदेशेन अपवादोऽप्यथादेशः इति सज्जनः निर्ह्रादवती शब्दवती महाचमूः सेना युगान्तवातैः अभिगता आन्दोलिता अत एव निनादं कुर्वती अम्भोनिधिवीचिसंहतिः अर्णवोर्मिसमूहः इव चचाल रणाय जैत्रः प्रदिशन्निवत्वराम् तरङ्गितालम्बितकेतुसन्ततिः पुरोबलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः रणायेति जेतैव जैत्रः जयनशीलः अनुकूल इत्यर्थः जयतेः तृण्णन्तात् प्रज्ञादित्वात् स्वार्थे अण्प्रत्ययः तरङ्गितं सञ्जाततरङ्गं यथा तथा आलम्बिताः अवस्थिताः केतुसन्ततयः येन सह सह घनैः सान्द्रैः अम्बुशीकरैः सघनाम्बुशीकरः सुरभिः सुगन्धः समीरणः वायुः रणाय त्वरां प्रदिशन्निव त्वरयन्निव बलानां सैन्यानां पुरः अग्रे शनैः प्रतस्थे प्रस्थितः ववौ इत्यर्थः जयारवक्ष्वेडितनादमूर्च्छितः शरासनज्यातलवारणध्वनिः असम्भवन् भूधरराजकुक्षिषु प्रकम्पयन् गामवतस्तरे दिशः जयेति जयारवैः वन्दिनां जय जयेति शब्दैः श्वेडितनादैः सिंहनादैश्च मूर्च्छितः वर्धितः शरासनज्यानां धनुर्गुणानां तलवारणानां ज्याघातवारणानाञ्च ध्वनिः भूधरराजकुक्षिषु गिरिगुहासु असम्भवन् अमान् अवकाशम् अलभमानः इत्यर्थः अत एव गां भुवं प्रकम्पयन् एतेन बलानां बाहुल्यम् उक्तम् दिशः अवतस्तरे व्यानशे ऋतश्च संयोगादेर्गुणः अत्र मूर्च्छापदार्थस्य विशेषणगत्या सम्भवनहेतुत्वात् काव्यलिङ्गरूपम् गिरिकुक्षिरूपापेक्षया ध्वनेः आधेयस्य आधिक्योक्तेः अधिकालङ्कारश्च तेभ्यश्च इयम् असम्भवन्निति व्यञ्जकं विना उत्थाप्यमाना उपात्तमूर्च्छागुणनिमित्ता प्रतीयमाना क्रियोत्प्रेक्षा तैः अङ्गाङ्गिभावेन सङ्कीर्यते इति सङ्करः। निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभामिवान्तरम् वने सदां हेतिषु भिन्नविग्रहैः विपुस्फुरेरश्मिमतो मरीचिभिः निशातेति निशाताः तीक्ष्णाः अत एव रौद्राः भीषणाश्च ये तेषु निशातरौद्रेषु विशेष्यविशेषणयोः अन्यतरविशेष्यत्वविवक्षायाम् इष्टत्वात् विशेषणसमासः वने सीदन्तीति वने सदां वनेचराणां सत्सूद्विष इत्यादिना क्विप् तत्पुरुषे कृतिबहुलम् इत्यलुक् हेतिषु आयुधेषु हेतिश्शस्त्रेऽपि पुंस्त्रियोः इति केशवः भिन्नविग्रहैः सङ्क्रान्तमूर्तिभिः अत एव विकासतां विसृत्वरतां गतैः अत एव ककुभां दिशाम् अन्तरम् अवकाशं प्रदीपयद्भिरिव प्रज्वालयद्भिरिव स्थितैः इति उत्प्रेक्षा रश्मिमतः सूर्यस्य मादुपधायाश्च मतोर्वोयवादिभ्यः इति मतुपो मकारस्य न वकारः मरीचिभिः करैः भानुः करो मरीचिस्त्रिपुंसयोः इत्यमरः विपुस्फुरे बभासे स्फुरतेः भावे लिट्